भ्यो नमः। गतवर्गे वयं क्त्वा प्रत्ययस्य विषयं किञ्चित् दृष्टवन्तः, अद्यापि तदेव कृत्वा अग्रे सरामः। तत्र किं कुत्र स्मः भगिनि, सरला भगिनि स्मरति वा गतवर्गे कुत्र
द्विशत अधिकम् एकशततमं पुनः कथां पठितवत् भवान् लिखितवान् अभ्यासं कुरु एकत्रिंशत् अधिकम् एकतमे पुटे
अभ्यासः। समीचीनम्, अस्तु अस्तु अस्तु, एकत्रिंशत् शताधिकं पुटे अस्तु, तत्र अभ्यासः अस्ति। हा अस्तु, समीचीनं भगिनि, धन्यवादः।
नमस्ते महोदय, शीतल अस्ति।
शीतल भगिनि नमस्कारः, अस्तु
नमस्कारः,
नमस्कारः, नमस्कारः, अस्तु। अतः तत्र किं कुर्मः, तृतीय अभ्यासः कृत्वा, तृतीयम् अभ्यासं तत्र कृत्वा अग्रे तत् अखण्डविश्वासः इति कथा अस्ति, तद् पठामः। अस्तु, तर्हि तत्र त्वा प्रत्ययस्य व्यवहारः अत्र अस्तु। तत्र प्रायशः किञ्चित् तत्रापि कृतवन्तः, किन्तु पुनरेकवारं कुर्मः तत्र। अस्तु, अतः सरला भगिनी आरम्भं करोति वा तत्र?
अस्तु महोदय, लघुदाहरणवाक्यद्वयस्य योजनं रूपाणि उपयुज्य कुरु सः, यथा कृष्णः सेनयोः उभयोः मध्ये रथं स्थापयति, सर्वान् पश्यति। सेनयोः उभयोः मध्ये रथं स्थापयित्वा सर्वान् पश्यति। द्वितीय अस्ति, अर्जुनः अहं योद्धुं न शक्नोमि इति वदति, उपविशति। अर्जुन अहं योद्धुं न शक्नोमि इति उक्त्वा उपविशति।
हा, समीचीनं भगिनि। तत्र उक्त्वा अथवा अन्यत् रूपमपि अस्ति तत्र, तदस्ति
किं,
उदित्वा इति, उदित्वा इति, समीचीनं भगिनि। हा हा, धन्यवादः, अस्तु, समीचीनं। नरेश् महोदय अग्रे।
युद्धे शत्रून् जय, समृद्धं राज्यं भुङ्क्ष्व। युद्धे शत्रून् जयित्वा समृद्धं राज्यं भुङ्क्ष्व।
जित्वा, जित्वा इति, हा, जयित्वा,
जित्वा,
जित्वा इति, हा, अतः तत् जित्वा इति अस्ति। हा,
जित्वा,
जित्वा, जित्वा इति, हा, समीचीनं भगिनि, धन्यवादः। हा हा, जित्वा इति एव भवति इति मन्ये महोदय। अग्रे शीतल भगिनी अग्रे पठति वा?
आम् महोदय। अर्जुनः विश्वरूपं पश्यति, भीतः भवति। अर्जुनः विश्वरूपं दृष्ट्वा भीतः भवति।
समीचीनं भगिनि, हा, दृष्ट्वा इति, समीचीनं। हा, सरला भगिनी अग्रे।
कृष्ण अर्जुनाय दिव्यं चक्षु ददाति, विश्वरूपं दर्शयति। कृष्णः अर्जुनाय दिव्यं चक्षु दत्त्वा विश्वरूपं दर्शयति।
हा, समीचीनं भगिनि। हा, नरेश् महोदय अग्रे।
धृतराष्ट्रः सञ्जयं पृच्छति, युद्धविवरणं जानाति। धृतराष्ट्रः सञ्जयं पृष्ट्वा युद्धविवरणं जानाति।
हा, समीचीनं। शीतल भगिनि।
सः ईश्वरं जानाति, शान्तिं प्राप्नोति। सः ईश्वरं ज्ञात्वा शान्तिं प्राप्नोति।
समीचीनं भगिनि। हा, सरला भगिनि अग्रे।
अर्जुनः कृष्णस्य वाक्यं श्रुणोति, युद्धाय उत्तिष्ठति। अर्जुनः कृष्णस्य वाक्यं श्रुत्वा युद्धाय उत्तिष्ठति।
समीचीनं भगिनि। हा, नरेश् महोदय।
योगिनः कर्मफलानि त्यजन्ति, आत्मशुद्धये कर्म कुर्वन्ति। योगिनः कर्मफलानि त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति।
हा, तत्र कर्म इति पदं द्वितीयविभक्तौ एव अस्ति तत्र। कर्म इति कर्मपदमेव अस्ति तत्र। शीतल भगिनी अग्रे।
सञ्जयः कृष्णार्जुनसंवादं स्मरति, हर्षम् अनुभवति। सञ्जयः कृष्णार्जुनसंवादं स्मृत्वा हर्षम् अनुभवति।
हा, समीचीनं। सरला भगिनी।
अर्जुनः तुलसीं लभते, स्वधर्माचरणं करोति। अर्जुनः स्मृतिं लब्ध्वा स्वधर्माचरणं करोति।
हा, समीचीनं। हा, नरेश महोदय।
जीवः कर्मफलं भुङ्क्ते, पुनर्जन्म प्राप्नोति। जीवः कर्मफलं भुङ्क्त्वा,
भुक्त्वा, भुक्त्वा इति, भुक्त्वा इति कोष्टकमस्ति। हा, कोष्टकमस्ति महोदय, पेज् 129 मध्ये।
भुक्त्वा, जीवः कर्मफलं भुक्त्वा पुनर्जन्म प्राप्नोति।
हा, समीचीनं। हा, शीतल भगिनी।
योगिनः मनः आत्मनि योजयन्ति, ध्यानं कुर्वन्ति। योगिनः मनः आत्मनि योजयित्वा ध्यानं कुर्वन्ति।
हा, समीचीनं भगिनी। किं भगिनी, सरला भगिनी? ध्यानं कुर्वन्ति। हा,
योजयन्ति बहुवचनं
सत्यं भगिनि। हा, अतः किं पुनः एकवारं वदतु भगिनि वाक्यं।
योगिनः मनः आत्मनि योजयित्वा ध्यानं कुर्वन्ति।
ध्यानं कुर्वन्ति, समीचीनं भगिनि। हा, समीचीनं। हा, सरला भगिनि।
कर्मबन्धिनः मिलन्ति, पुनः जायन्ते। कर्मबन्धिनः मृत्वा पुनः जायन्ते।
हा, पुनः जायन्ते, समीचीनं। नरेश महोदय।
नरः ईश्वरे कर्मणां न्यासं कुरुते शान्तिं प्राप्नोति। नरः ईश्वरे कर्मणां न्यासं कृत्वा शान्तिं प्राप्नोति।
तत्र कृत्वा एव अस्ति खलु तत्र?
आमां, कुरुते,
कुरुते इति। अस्तु, कुरुते, कृत्वा, अस्तु। अग्रे शीतल भगिनी।
ईश्वरः भक्तं त्रायते, धर्मरक्षणं कुरुते। ईश्वरः भक्तं त्रात्वा, सम्यक् न जानामि, ईश्वरः भक्तं त्रात्वा धर्मरक्षणं कुरुते।
हा, त्रात्वा, अस्तु भगिनि। हा, तत्र त्रायते, त्रायते इति, अस्तु, समीचीनं भगिनि। हा, समीचीनं भगिनि, अस्तु। अग्रे सरला भगिनि।
भक्तः अद्वैष्टा भवति, ईश्वरं भजति। भक्तः अद्वैष्टा भूत्वा ईश्वरं भजति।
हा, अद्वेष्टा भूत्वा ईश्वरं भजति, समीचीनं भगिनि। हा, अग्रे नरेश महोदय।
ईश्वरः दुष्कृतां नाशं करोति, साधूनां रक्षणं करोति। ईश्वरः दुष्कृतां नाशं कृत्वा साधूनां रक्षणं करोति।
हा, समीचीनं। हा, शीतल भगिनी अग्रे।
मानवः स्वकर्मणा देवम् अर्चन्ति, सिद्धिं विन्दन्ति। मानवः स्वकर्मणा देवम् अर्चयित्वा सिद्धिं विन्दति।
हा, अर्चयित्वा इति अर्चयित्वा अथवा अर्चित्वा किमस्ति भगिनि?
अर्चित्वा,
अर्चित्वा, अर्चित्वा, न अर्चित्वा अर्चित्वा यकार नास्ति इति
उत्तरं ददाति यकार अस्ति सम्यक् किन्तु महोदय बहुवचन एकवचन समान अस्ति
तत्र त्वान्तरूपम् एकमेव रूपमस्ति भगिनि तत्र त्वान्तरूपम् एतत् त्वा प्रत्यय तत्र एकमेव रूपम् अस्ति यदि पुरुषभेदः नास्ति वचनभेदः नास्ति एकमेव रूपम् एकमेव रूपम् अस्तु अग्रे सरला भगिनी अन्तिमम्
योगी अहंकारं त्यजति शान्तः भवति योगी अहंकारं त्यक्त्वा शान्तः भवति
शान्तः भवति समीचीनं भगिनि अस्तु हा इदानीम् अग्रे कथां पठामः तत्र एतत् एव रूपस्य त्वा प्रत्ययस्य तदेव अभ्यासः कथा द्वारा किं भगिनि
स्थूलरूपेण गतसप्ताहे पठितवन्तः
एतत् कथं पठितवन्तः वा गतवर्गे अखण्डविश्वासः न भगिनि न न अग्रे गतवर्गे न प्रायशः अन्ये वर्गे पठितवन्तः किन्तु गत गतवर्गे न नो चेत् अहं विस्मृतवान् अस्तु तर्हि तत्र नरेश महोदय आरम्भं करोति वा तत्र
महोदय खण्डविश्वासः एतां कथाम् उच्चैः पठत महाभारतयुद्धम् आसीत् भीष्मः कौरवानां सेनापतिः भूत्वा अष्टदिवसान् यावत् भयङ्करं युद्धं कृतवान् पाण्डवाः तस्य पुरतः युद्धं कर्तुम् असमर्थाः चिन्तामग्नाः आसन् तथापि भीष्मः पाण्डवेषु एकमपि न मारितवान् इति मत्वा दुर्योधनः खिन्नः आसीत्
अग्रे सरला भगिनि
अतः स भीष्मं दृष्ट्वा अवदत् भो पितामह मदपेक्षा पाण्डवाः एव भवतः प्रियाः अतः भवान् युद्धेऽपि तैः सह क्रीडति न कमपि मारयति इति
अग्रे पठतु
एतत् श्रुत्वा भीष्मः स्थितितः जातः तदपि सः प्रतिज्ञां कृतवान् यत् श्वः युद्धं कृत्वा अहम् अर्जुनं मारयिष्यामि अथवा तेन पराजितः वा भविष्यामि इति
समीचीनं भगिनि अस्तु अग्रे शीतल भगिनि
आं महोदय भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता तां श्रुत्वा पाण्डवपक्षे सर्वेपि वीराः चिन्तिताः अभवन् श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रा न प्राप्तवान् भीष्मप्रतिज्ञां ज्ञात्वा अर्जुनः तु नितरां चिन्तितः स्यात् इति चिन्तयित्वा सः तस्य सान्त्वनं कर्तुम् अर्जुनस्य सेनाशिबिरं गतवान् परन्तु
वदतु भगिनि परन्तु
श्रीकृष्णस्य महत् आश्चर्यं सञ्जातं यतः यदा सः गत्वा दृष्टवान् तदा तत्र अर्जुनः गाढनिद्रायां मग्नः आसीत् सः अर्जुनम् उत्थाप्य पृष्टवान् भोः पार्थ किं भवान् भीष्मस्य प्रतिज्ञां न श्रुतवान् इति.
समीचीनं भगिनि. हा अस्तु, रघुपतिमहोदय नमस्कारः.
नमस्कारः महोदय, क्षम्यताम्.
उत्तमम् अस्तु महोदय. हा बाणचेतनी महोदय नमस्कारः.
शुभोदय महोदय नमस्कारः.
नमस्कारः. हा तत्र कथां पठन् स्मः, पेज् 132 अखण्डविश्वासः इति कथा.
आम्
हा रघुपतिमहोदय तत्र तत्र
आम्
अधोभागे श्रुतवान् इति आरभ्य.
अस्तु, श्रुतवान् इति उक्तवान् अर्जुन. तर्हि तां श्रुत्वापि कथं भवान् चिन्तितः नास्ति, बुद्धिभयात् उद्विग्नः अपि नास्ति इति श्रीकृष्णः पृष्टवान्. अर्जुनः किञ्चित् हसित्वा शान्तस्वरेण उक्तवान्, भगवन् अहं सम्यक् जानामि यत् यः मम योगक्षेमस्य चिन्तां करोति सः जागरणं कुर्वन् अस्ति इति. एवं सति अहं किमर्थं चिन्ता कृत्वा दुःखितः भवामि? स्वस्य भक्तस्य भीष्मप्रतिज्ञायाः रक्षणभारः भगवतः भवतः एव, मम का चिन्ता तत्र? अतः एव अहं निश्चिन्ततया निद्रां कृतवान् अस्मि इति. सत्यं खलु, अर्जुनस्य एतादृशं दृढं विश्वासं मत्वा एव श्रीकृष्णः पार्थसारथि अभवत्.
समीचीनं महोदय, धन्यवादः. अस्तु, इदानीं पङ्क्तिशः पश्यामः. तत्र किञ्चित् अवगमनं जातं खलु कथायाः, श्रीकृष्णः भीष्मः तस्य प्रतिज्ञा, भीष्मस्य प्रतिज्ञा, तदनन्तरं श्रीकृष्णस्य चिन्तनं, तदनन्तरं श्रीकृष्ण अर्जुन तयोः मध्ये सम्भाषणम्. अस्तु, इदानीं पङ्क्तिशः पश्यामः. तत्र सरला भगिनी आरम्भं करोति वा तत्र?
आम् महोदय. अस्तु, महाभारतयुद्धम् आसीत् प्राचीनसमये. महाभारतस्य युद्धं प्रचलन् आसीत्. भीष्मकौरवाणां सेनापति भूत्वा अष्ट दिवसान् यावत् भयङ्करं युद्धं कृतवान्. भीष्मकौरवाणां सेनापति आसीत्, तत्र सेनापति सः आसीत्. अष्टदिवसान् भयङ्करं युद्धं जातं कौरवाणा पाण्डवान् तयोः मध्ये. भीष्मापि सततः युद्धं कृतवान्.
हा तत्र कृतवान्. तत्र सः युद्धे सः सेनापतिः आसीत्.
आम्
कौरवाणां सेनायाः सेनापतिः आसीत्. तत्र भूत्वा इति स्थाने अन्यत् किं स्थापितुं शक्नुमः?
आसीत्
तद् तत्र वाक्यद्वयं कर्तुं शक्नुमः. सेनापतिः आसीत्, अष्टदिवसान् यावत् भयङ्करं युद्धं कृतवान्. समीचीनं. हा अथवा सन् इति अपि वक्तुं शक्नुमः खलु तत्र? सेनापतिः सन् अष्टदिवसान् यावत् युद्धं कृतवान्. तत्र तत्र यावत् इति आवश्यकं वा? तत्र केवलम् अष्टदिवसान् इति वदामश्चेत् साधु वा तत्र? अष्टदिवसान् भयङ्करं युद्धं कृतवान् इति साधु वा? हा युद्धस्य विशेषणं भवति तद् अष्टदिवसान् इति. किन्तु तद् वक्तुं न इच्छामः. तत्र समयस्य विषयं, कालस्य विषयं वक्तुं शक्नुमः इच्छामः. अतः यावत् इति तत्र अस्ति. समीचीनं भगिनि. हा अतः यावत् इति आवश्यकमस्ति तत्र. हा समीचीनं. हा अग्रे
अग्रे पाण्डवाः तस्य पुरतः युद्धं कर्तुम् असमर्था चिन्तामग्ना आसन्. पाण्डवाः भीष्मस्य पुरतः ते न चिन्तितवन्तः भीष्म महायोधा अस्ति, तस्य पुरतः कथं वयं युद्धं कर्तुं शक्नुमः इति तेषां चिन्ता आसीत् पादवानां मनसि.
सत्यं
ते चिन्तवन्तः तेन समर्था सन्ति भीष्मतः पुरतः युद्धं कर्तुं ते समर्था
तेषां मनसि गौरवम् आसीत् अतः अतः युद्धं कर्तुं ते न शक्नुवन्तः.
तथापि भीष्म पाण्डवेषु एकमपि न मारितवान् इति मत्वा दुर्योधनखिन्ना आसीत्. दुर्योधन युद्धं दृष्ट्वा तत् एकमपि पाण्डवान् अथवापि भीष्मै न मारित म्रियते इति सः भीष्मं प्रति खिन्ना अभवत्.
दुर्योधनः खिन्नः अभवत्. तत्र मत्वा इति क्रियापदं किं मत्वा इति क्रियापदं मत्वा इति मन्यते इति मन्ये खलु. मत्वा दुर्योधनः खिन्नः आसीत्. समीचीनं भगिनि. तत्र
पाण्डव तस्य पुरतः युद्धं कर्तुं कर्तुं रुकार
कर्तुमिति तुमुन् अस्ति, तुमुन् रूपम् अस्ति कर्तुम् इति प्रायशः
किमर्थम् अन्यार्थं
कर्तुं कर्तुं कर्तुम् इति तत्र किम् अस्मिन् युद्धं कर्तुं युद्धं कर्तुं न तेषां शक्तिः नासीत्.
किन्तु
भगिनी तत्र ते कृतवन्तः युद्धं कृतवन्तः किन्तु कोऽपि भीष्मं न मारितवान् खलु. न अपि ते जितवन्तः भीष्मं न जितवन्तः खलु ते. शीतल भगिनी.
आं महोदय किन्तु कर्तुं वा कर्तुं किम् अर्थभेदः.
युद्धं कर्तुं कर्तुम् इति इत्युक्ते ते न कृतवन्तः कर्तुम् इच्छ इदानीं तत्र अहं पठितुम् इच्छामि न कर्तृं नास्ति कर्तृम् इति रूपं कर्तृम् इति कर्तृम् इति पदम् अहं न जानामि. कर्तृम् इति कर्तृम् इत्युक्ते किं
करोति कर्तुं
न महोदय भगिन्याः प्रश्नः अस्ति कर्तृम् इति
कर्तृं कुत्र अस्ति कर्तृं शब्दः
कर्तृम् इति जानामि भगिनि
कर्तृपदम्
अस्ति कर्तृपदम् अस्ति किन्तु एतत् कर्तुम् इति अस्ति
धातु कृ अस्ति तस्य तुमन् प्रयोगः अस्ति कृ धातु तस्य तुमन् अपि भवति तस्य गुणं भवति कृ कर आगच्छति.
शीतल भगिनी शीतल भगिनी भवत्याः प्रश्नः कः
वयम् उपयोगं करोति कर्तुं
केवलं कर्तुम् इति अस्ति कर्तृम् इति रूपं मया न दृष्टम् कर्तुम् इति अस्ति. एकमेव रूपमस्ति कर्तुम् इति पठितुं गन्तुम् इति तादृशरूपं तुमुन् रूपम् इति वदामः प्रत्येकस्य क्रियापदस्य एक तुमुन् रूपम् एव अस्ति भगिनि.
यतः
त्वा इति रूपं तादृशरूपं तदपि तुमुन् रूपम् इति तत्र कृत्वा इति अथवा कर्तुम् इति तत्र असमर्थाः चिन्तामग्नाः अपि द्वयमपि पाण्डवाः इति पदस्य विशेषणद्वयं भवति तत्र विशेषणद्वयं भवति अपि तस्य पाण्डवः तस्य पुरतः इत्युक्ते भीष्मस्य पुरतः ते युद्धं कर्तुम् असमर्थाः आसन् किन्तु तथापि भीष्मः तेषु एकमपि न मारितवान् इति तद् ज्ञात्वा दुर्योधनः खिन्नः आसीत्. इदानीं खिन्नदुर्योधनः किं वदति इति पश्यामः. तत्र नरेश् महोदय अग्रे वदति वा.
अतः सः भीष्मं दृष्ट्वा अवदत् भोः पितामह मदपेक्षया पाण्डवाः एव भवतः प्रियाः. दुर्योधन भीष्मम् अवदत् पितामह मम अपेक्षया भवतः पाण्डवाः अधिकप्रियाः सन्ति. अतः भवान् युद्धे अपि तैः सह क्रीडति. अतः भवान् पाण्डवाः सह क्रीडति
ते प्रियाः इति भवान् चिन्तयित्वा तैः सह युद्धं न करोति किन्तु क्रीडति भवान् क्रीडति. अतः तत्र
भवान् तान् न मारयति
कमपि न मारयति. अतः पाण्डवाः ते सन्ति कोऽपि न मृतः तत्र अपेक्षया इति अस्ति चेत् तस्य पूर्वं किं भवति महोदय. अपेक्षया इति रूपम् अस्ति चेत् तस्य पूर्वं कोऽपि सरलवाक्यं स्वीकरोतु. तुलना अस्ति अपेक्षया इति तुलना अस्ति. कोऽपि वाक्यं वदतु कोऽपि अन्य कोऽपि वदन्ति वा अपेक्षया इति वाक्यं.
अन्य पर्वताः पर्वतस्य अपेक्षया एवरेस्ट
पर्वतः उन्नतः इति अन्यपर्वतस्य अपेक्षया एवरेस्ट् पर्वतः उन्नतः. तत्र अपेक्षया पूर्वं यदस्ति तत्र विभक्ति का
षष्टि.
अत्र किमस्ति
मत्
इति रूपं कीदृशरूपम् इति कोऽपि वदति वा.
समस्तपदे मम तस्य मत् इति विकृति
रूपमागच्छति.
मम अपेक्षया यदि तत्र पदद्वयं वक्तुम् इच्छामः तत्र मम अपेक्षया इति भवति. समीचीनम् अस्तु तदेव अस्तु समीचीनं. तत्र
मत्पेक्षया किमस्ति
पञ्चमीभक्ति अस्ति पञ्चमीभक्ति केवलं मत् इति अस्ति चेत् तत्र पञ्चमीभक्ति भवति किन्तु जानीमः तत्र अपेक्षया इति अस्ति चेत् षष्ठी एव खलु.
एतत् नियम अस्ति अस्मद् यदि पदमस्ति तस्य समस्तपदे मत् इति भवति समस्तपदे यदि योजयामः तस्य मत् भवति कापि विभक्ति भवति किन्तु मत् इति आगच्छति तत्र समस्तपदे
हा अस्तु भगिनि हा तत्र सूत्रं
महोदयस्य तत्पुरुषसमासे इति करपत्रम् अस्ति तत्र
ओ अस्तु अस्तु सूरभ महोदयस्य अस्तु हा अस्तु अस्तु तत्पुरुषसमासस्य विषये तद् आगच्छति वा अस्तु समीचीनं भगिनि अस्तु
अहं न अवगतं किमस्ति मम अपेक्षया
तत्र यदि समस्तपदम् एतत् समस्तपदम् अस्ति महोदय किन्तु यदि पदद्वयं वक्तुम् इच्छामः चेत् तत्र मम अपेक्षया मम अपेक्षया पाण्डवाः एव भवतः प्रियाः इति
महोदय सामान्यतया यदि समस्तपदं भवति तद् प्रातिपदकं योजित्वा समस्तपदं निर्मामः किन्तु अत्र के नियम अस्ति यदि अस्मत् शब्दः अस्ति तत्र मत् इति अस्मद् इति तस्य
अहम् इति
प्रातिपदकं न योजयामः किन्तु मत् इति योजयामः यदि त्वम् अस्ति तत्र युष्मत् पदस्ति तत्र तत् योजयामः इति
तत्र एतत् षष्टि तत्पुरुषसमासः इति भवति इति मन्ये तत्र अत्र खलु भगिनी सरलभगिनी अत्र अत्र अतः तत्र रूपभेदं समस्तपदे रूपं केवलं योगः इति न अन्यत् किमपि कार्यं कृत्वा एतद् रूपम् आगच्छति महोदय
अस्तु धन्यवादः
महोदय अस्तु
एतत् श्रुत्वा भीष्मः दुःखितः जातः दुर्योधनः वचनस्य
दुर्योधनस्य वचनं
भीष्मः दुःखितः अभवत्
दुर्योधनस्य वचनात् भीष्मः दुःखम् अनुभवति अथवा दुःखितः जातः
झटिति सः प्रतिज्ञां कृतवान् यत् श्वः युद्धं कृत्वा अहम् अर्जुनं मारयिष्यामि तदा भीष्मः अवदत् प्रतिज्ञां कृतवान् श्वः
तत्र किं तत्र भीष्मस्य स्वभावः जानीमः खलु तस्य तु तस्य कीदृशस्वभावः इत्युक्ते सः तत्र धर्माचरणं करोति खलु तत्र एषः मम प्रियः अतः अहम् एतत् करोमि किन्तु अन्यः एषः मम न प्रियः न इति तादृशः स्वभावः तस्य नास्ति खलु अतः तस्य सः दुःखितः भूत्वा झटिति इत्युक्ते सः तत्र किं विलम्बः न करोति त्वरया झटिति इमिडियेट्लि इति
श्वः युद्धं कृत्वा अहम् अर्जुनं मारयिष्यामि भीष्मः प्रतिज्ञां कृतवान् श्वः अर्जुनं मारयिष्यामि युद्धे
मारयिष्यामि तस्य मरणं भविष्यति अर्जुनस्य मरणं भविष्यति श्वः
अथवा तेन पराजितः वा भविष्यामि इति
तेन इत्युक्ते
तेन पाण्डवैः
अथवा अर्जुनेन अत्र अर्जुनेन
पराजितः करिष्यामि
पराजितः भविष्यामि तस्य तं मारयिष्यामि नो चेत् अहं पराजितः भविष्यामि किन्तु यदि कर्तुं शक्नोमि निश्चयेन करोमि तं मारयिष्यामि इति सः वदति समीचीनं महोदय धन्यवादः अस्तु अग्रे भानुचितिनि महोदय वक्तुम् इच्छति वा
महोदय
भीष्मस्य प्रतिज्ञा इति
भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता तां श्रुत्वा पाण्डवपक्षे सर्वेपि वीराः चिन्तिताः अभवन् भीष्मस्य प्रतिज्ञा भीष्मप्रतिज्ञा महोदय
तत्र भीष्मप्रतिज्ञा इति सत्यं तत्र प्रतिज्ञा किम् अस्ति
तदपि बहु प्रसिद्धं महोदय भीष्मप्रतिज्ञा
भीष्मप्रतिज्ञा किन्तु तद् अन्या प्रतिज्ञा अस्ति खलु भीष्मप्रतिज्ञा तु अन्या प्रतिज्ञा अस्ति बाल्यकाले यत् सः कृतवान् यां प्रतिज्ञा बाल्यकाले सः कृतवान् सा भीष्मप्रतिज्ञा किन्तु एषा तु भिन्ना अस्ति खलु अर्जुनस्य इदानीम् अर्जुनस्य श्वः अर्जुनं मारयिष्यामि इति अन्या प्रतिज्ञा अस्ति खलु महोदय सत्यं सत्यं कर्मणि रूपम् अस्ति सर्वे तत्र कर्तरिरूपं वदतु महोदय तत्र एतद् वयं न कृतवन्तः गीतासोपाने किन्तु भवान् जानाति वदतु तत्र
सर्वाः
सर्वे सर्वे
सर्वे सर्वे क्षम्यतां महोदय सर्वे ज्ञातवन्तः
सर्वे भीष्मस्य प्रतिज्ञां ज्ञातवन्तः समीचीनं महोदय प्रतिज्ञां ज्ञातवन्तः भीष्मः एतादृशीं प्रतिज्ञां कृतवान् इति सर्वे ज्ञातवन्तः तत्र सर्वे इत्युक्ते के कौरवाणां सेना
सर्वे इत्युक्ते कौरवाणां
सैनिकाः सैनिकाः योद्धारः ते सर्वे ज्ञातवन्तः अग्रे
कौरवपक्षाः
पाण्डवपक्षाः द्वयमपि अग्रे तां
तां श्रुत्वा
पाण्डवपक्षे तां
तां
इत्युक्ते
प्रतिज्ञां श्रुत्वा
ताम् इति किमर्थं स्त्रीलिङ्गे अस्ति
प्रतिज्ञा
समीचीनं श्रुत्वा
पाण्डवपक्षे
श्रुत्वा
पाण्डवपक्षे सप्तमी महोदय
सप्तमी समीचीनं
सर्वे अपि वीराः चिन्तिताः अभवन्
चिन्तिताः अभवन् अग्रे
अग्रे श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रां न प्राप्तवान् श्रीकृष्णः अपि चिन्ता करोति वा
इति कथायाः आशयः
कोऽपि कोऽपि रचयति
भक्तान् प्रति सः चिन्तितवान्
हा इति सम्यक् एव अस्ति महोदय किन्तु यत् भवान् वदति तदपि साधु किन्तु कथमपि समीचीना एव अस्ति
सः मेनेजर् अस्ति अतः चिन्ता अस्ति तस्य
वातुल किन्तव नास्ति नियन्त
किं महोदय
भजगोविन्दम् एकं श्लोकमस्ति महोदय वातुल किन्तव नास्ति नियन्त एकः नियन्तृ विभुः अस्ति सर्वं करोति भवान् किमर्थं चिन्तयति इति
सत्यं सत्यं सत्यं
श्रीकृष्णः अपि चिन्तावशात् वशात् तदपि महोदय पञ्चमी
तत्र किमस्ति तत्र अपि चिन्तावशात् किं कृतवान्
निद्रां न प्राप्तवान्
निद्रां न प्राप्तौ
रात्रौ सप्तमे निद्रां द्वितीय न प्राप्तवान्
तत्र निद्रावशात् इति तत् कारणपञ्चमी इति वदामः खलु कारणम् अस्ति चिन्तावशात् इति चिन्तावशात् चिन्तितः
अत्र वशात् इत्यस्य कृतवान् पूर्वं कोपवशात् निद्रावशात् प्रत्यय किम् अस्ति तत्र चिन्तावशात् इति वशात्
चिन्तावशः इति
वशः अस्तु वश् दातु अस्तु वशात्
चिन्तावशः इति चिन्तयामि तत्र तत्र किम् अस्ति सः चिन्तेन
भूत्वा चिन्तावश भूत्
तस्य मनसि चिन्ता अस्ति इति चिन्तायाः वशः सः अस्ति
अस्तु अस्तु इदानीम् अवगतवान्
सरलभगिनी तदेव वक्तुं सत्यं किन्तु वशः इति कस्य वशः इति रूपं भवति खलु
चिन्तायाः वशः
तत्र कोऽपि सैनिकः अस्ति तः सः अन्य कुत्रापि गच्छति अन्याः सैनिकाः तेषां वशः एषः भवति इति तत्र षष्टिरूपं भवति खलु अतः अहं चिन्तितवान् चिन्तायाः वशः इति
चिन्तायाः वशः इति समासः अस्ति समासपदः अस्ति
सत्यं सत्यं चिन्तावशः इदानीं तस्य पञ्चमी कारणपञ्चमी इदानीं अपि रात्रौ निद्रां न प्राप्तवान् अस्तु बनचित्रि महोदय अग्रे
महोदय भीष्मप्रतिज्ञां ज्ञात्वा अर्जुनः तु नितरां चिन्तितः स्यात्
कृष्णः
महोदय
कृष्णस्य चिन्तनं किम् अस्ति
प्रतिज्ञां प्रतिज्ञा द्वितीय
तां श्रुत्वा इति अस्ति तां प्रतिज्ञां श्रुत्वा इति पूर्वे आसीत् खलु तदेव तां भीष्मप्रतिज्ञां ज्ञात्वा इति इदानीं किं भगिनि
महोदय तत्र भीष्मप्रतिज्ञां भीष्मप्रतिज्ञा एव भीष्मस्य प्रतिज्ञा पूर्वं
न महोदय
इदानीं समासः
न सत्यं महोदय प्रथमवाक्ये भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता तत्र तु कर्मणि रूपम् अस्ति भवान् एव उक्तवान् सर्वे भीष्मस्य प्रतिज्ञां ज्ञातवन्तः इति खलु तदनन्तरं ताम् इति अस्ति तत्र ताम् इत्युक्ते प्रतिज्ञां तत्र श्रुत्वा इति अस्ति
भीष्मप्रतिज्ञां
भीष्मप्रतिज्ञां श्रुत्वा पूर्वम् आसीत् इदानीं ज्ञात्वा इति अस्ति कर्मपदं तत्र ज्ञात्वा इति क्रियापदस्य क्रियासूचकपदस्य
महोदय कर्मणि प्रयोगं प्रथमवाक्यं यदस्ति तदपि भीष्मप्रतिज्ञा सर्वैः ज्ञाता इति अपि वक्तुं शक्नुवन्ति इति.
सत्यं सत्यं, हा तत्र कर्म कर्मपदमस्ति किन्तु प्रथमविभक्तौ अस्ति. सत्यं महोदय.
भीष्मप्रतिज्ञा अत्र अस्ति. भीष्मप्रतिज्ञां
ज्ञात्वा
अर्जुनः तु
तदेव
नितरां
नितरां सः तु नितरां
चिन्तितः स्यात्.
सः चिन्तामग्नः भवति भवति इति भवति इति कृष्ण चिन्तितवान्. अतः सः एतादृशं चिन्तनं कृत्वा सः किं कृतवान् भीष्मः कृष्णः
इति चिन्तयित्वा सः तस्य सान्त्वनं कर्तुम् अर्जुनस्य सेना शिबिरं गतवान्. सः इत्युक्ते कृष्णः यः चिन्तामग्नः आसीत् सः कृष्णः चिन्तामग्नः कृष्णः तस्य सान्त्वनम्
इत्युक्ते
तस्य अर्जुनस्य सान्त्वनम्
अर्जुनस्य सान्त्वनं
सान्त्वनं कर्तुम् अर्जुनस्य सेना शिबिरं गतवान्.
हा सान्त्वनम् इत्युक्ते सः चिन्तामग्नः भवति तस्य चिन्तां दूरीकरोमि इति चिन्तयित्वा सान्त्वनं कर्तुम् अर्जुनस्य सेनाशिबिरं श्रीकृष्णः गतवान्. समीचीनं महोदय. परन्तु तत्र
परन्तु श्रीकृष्णस्य महत् आश्चर्यं सञ्जातम् यतः महोदय सञ्जातम् तत्र तु महोदय महत् तु अव्ययपदमेव महोदय.
न तत्र महत् इति न अव्ययपदं नास्ति. महत् इति किमर्थं तत्र आश्चर्यम् इति अस्ति खलु तत्र आश्चर्यम् इति
बहु आश्चर्यं
हा तादृशम् आश्चर्यम् इति महत् इति विशेषणम् अस्ति तस्य.
महत्तु अव्ययपदं
नास्ति. न
विशेषणमस्ति.
आश्चर्यमिति लिङ्गं किम् आश्चर्य हा तत्र महती अस्ति महान् अस्ति महति महत् इति
सञ्जातमिति नपुंसकलिङ्ग अस्ति अतः आश्चर्य नपुंसकलिङ्ग भवेत् अतः सञ्जातं सा प्रत्ययः
सत्यं सत्यं सञ्जातमपि तत्र किमस्ति विशेषणम् अस्ति आश्चर्यं पदस्य.
सञ्जातं विशेषणं वा महोदय?
आश्चर्यं सञ्जातम्
आश्चर्यं सञ्जातम्
सञ्जातः सञ्जाता सञ्जातम्
किं भगिनि
द्वितीयविभक्ति वा द्वितीयविभक्ति वा
तत्र भगिनि तत्र किमर्थं द्वितीयविभक्ति
आश्चर्यं सञ्जातम्
कर्तृपदं किम् अस्ति तत्र कर्तृपदं किम् अस्ति तत्र कर्तृपदं किमपि अन्यत् किमपि नास्ति खलु भगिनि आश्चर्यमेव आश्चर्यं सञ्जातम् आश्चर्यम् अभवत् इति खलु प्रथमविभक्ति एव अस्ति. भानचितिन् महोदय अग्रे
तर्हि
सञ्जातम् इत्युक्ते अभवत् इति तद् अभवत्
आम् किन्तु तत्र क्रियापदं किं महोदय आसीत्
सञ्जातम् आसीत् सञ्जातम् आसीत् इति
महोदय
तत्र
यतः
किन्तु सञ्जातम् इति क्रियापदं नास्ति तत्र, तत्र विशेषणम् अस्ति आश्चर्यं पदस्य.
आम् महोदय.
हा पुस्तकं पठितं, पठितं पुस्तकम् इति अस्ति खलु
महोदय. विभक्ति किं महोदय?
प्रथमविभक्ति अत्र प्रथमविभक्ति एव.
आश्चर्यम् इति नपुंसकलिङ्ग अस्ति.
हा
आश्चर्यः नास्ति, आश्चर्यम् एव.
आश्चर्यः अपि
नै नास्ति.
आश्चर्यः इति आश्चर्यम् इति
पुल्लिङ्गरूपं नास्ति वा?
तत्र अहं दृष्टवान् इदानीं नास्ति. आश्चर्यता अस्ति, आश्चर्यम् एव.
तत्र महान् महान् वृक्षः, महती का नदी अपि महत् आश्चर्यम्.
महती वीणा.
हा समीचीनं भगिनि महोदय. हा सत्यं सत्यं. हा
हा
इदानीं
धन्यवादः. यतः यदा सः गत्वा दृष्टवान् तदा तत्र अर्जुनः गाढनिद्रायां मग्नः आसीत्. तदेव महोदय, वाकुल किन्तव नास्ति अन्त मेनेजर्.
सत्यं सत्यं. हा अतः श्रीकृष्णः किं करोति, कृष्णस्य सेनाशिबिरं गच्छति, तत्र तस्य क्षमितं अर्जुनस्य अर्जुनस्य शिबिरं गच्छति श्रीकृष्णः. तत्र किं भवति?
तत्र अर्जुनं दृष्ट्वा महान् आश्चर्यं.
तत्र अर्जुनः किं करोति? निद्रां करोति.
अर्जुनः तु निद्रामग्नः आसीत्.
हा गाढनिद्रायां मग्नः.
गाढनिद्रा.
हा केवलं निद्रा इति न, गाढनिद्रा. तत्र विशेषणरूपम् इति वक्तुम् इच्छामः चेत् गाढनिद्रावशः आसीत् इति अपि. अत्र गाढनिद्रामग्नः अपि तदपि वक्तुं शक्नुमः इति मन्ये. हा अग्रे महोदय.
सः अर्जुनं उत्थाप्य पृष्टवान्. उत्थाप्य महोदय.
उत्थाप्य इति किमस्ति तत्र?
किम् इति किन्तु कस्य रूपं तत् उत्थाप्य?
लेबन्तरूपम् अस्ति.
लेबन्तरूपम् उपसर्ग अस्ति अतः लेब् लेब् अस्ति.
क्रियापदं किम् अस्ति तत्र?
उत्थाप्य
सकारस्य लोपः अस्ति
उत्थाप्य. अर्जुनं किं पृष्टवान्?
भोः किं भवान् भीष्मस्य प्रतिज्ञां न श्रुतवान्?
हा समीचीनं महोदय. अस्तु अग्रे रघुपतिमहोदय वदति वा?
आम् महोदय. श्रुतवान् इति उक्तवान् अर्जुनः. अर्जुनः वदति आम् अहं भीष्मस्य प्रतिज्ञा श्रुतवान् इति अश्रवम् इति भवति वा? श्रुदातु
अश्रुतम् इति
अश्रुतं भवति वा? तत् श्रुतम्
न क्षम्यताम् अश्रूयं वा अश्रूयम् इति वा? भूतकालरूपं. हा अस्तु महोदय. तत्र श्रुतवान् इति
तर्हि तां श्रुत्वा अपि कथं भवान् चिन्तितः नास्ति? भवान् किमर्थं निद्रां करोति, चिन्तितः नास्ति इति भाति इति. मृत्युभयात् उद्विग्नः अपि नास्ति. मृत्युभयात् भवान् मृत्युभयेन मृत्युभयेन चिन्तितः नास्ति इति
उद्विग्नः उद्विग्नः
भयात् मृत्युभयात् वा मृत्युभयेन वा
भयात् भयात् तत्रापि कारणं पञ्चमी एव
अस्तु मृत्युभयात् अस्तु इति श्रीकृष्णः पृष्टवान् अर्जुनः किञ्चित् हसित्वा शान्तस्वरेण उक्तवान् भगवान् अहं सम्यक् जानामि यत् यः मम योगक्षेमस्य चिन्तां करोति सः जागरणं कुर्वन् अस्ति इति महोदय अत्र एतत् भगवद्गीतायाः बोधनानन्तरमेव अति इति चिन्तयामि अतः शान्तः अस्ति सः
तत्तु भगवद्गीतायाः
विश्वरूपदर्शनानन्तरम् अस्ति
तत्तु युद्धस्य पूर्वमेव जातं खलु तत्
आमाम् अतः एव एतत् भगवद्गीतायाः एव एवं सति जागरणं कुर्वन् अस्ति इति जागरणं करोति सः मम योगक्षेमस्य चिन्ता करोति सः कृष्णः जागरणं कुर्वन् अस्ति इति एवं
तत्र रूपमस्ति यः सः इति रूपं
यः सः यः सः यः एवं सति एवं सति इति सप्तमी अतः अहं किमर्थं चिन्तां कृत्वा दुःखितः भवामि इति वदति स्वस्य भक्तस्य भीष्मप्रतिज्ञायाः रक्षणभारः भगवतः भवतः एव इति अस्ति स्वस्य भक्तस्य भीष्मप्रतिज्ञायाः रक्षणभारः भगवतः भवतः एव इति षष्ठीभक्ति भवतः एव भवानेव भीष्मप्रतिज्ञात् अस्मान् रक्षयति इति भीष्मप्रतिज्ञायाः
भीष्मात्
भीष्मात् एव रक्षणं करोति भवान् एव रक्षणं करोति अतः मम तत्र किमपि चिन्ता नास्ति अहं भवतः उपरि विश्वसिमि इति मम का चिन्ता तत्र भवान् एव मां रक्षति अस्मान् रक्षति
अतः भवतः उत्तरदायित्वं तत्तु भवतः उत्तरदायित्वं मम तु किमपि तत्र कार्यं नास्ति
नास्ति अतः एव अहं निश्चिन्ततया निद्रां कृतवान् अस्मि इति वदति निश्चिन्ततया निद्रां निश्चिन्ततया निद्रां कृतवान् अस्मि इति
सः वदति समीचीनं अन्तिमं
अस्तु सत्यं खलु अर्जुनस्य एतादृशं दृढं विश्वासं मत्वा एव श्रीकृष्णः पार्थसारथिः अभवत् पार्थसारथिः दृढविश्वास अर्जुनस्य एतादृशं दृढविश्वासं मत्वा एव श्रीकृष्णः पार्थसारथिः अभवत्
तत्र दृढविश्वासात्
पार्थसारथिः अभवत्
ज्ञात्वा तेन कारणेन दृढविश्वासः अर्जुनस्य दृढविश्वासः अस्ति इति कारणेन श्रीकृष्णः तस्य सारथिः अभवत् समीचीनं अस्तु महोदय तत्र अष्टाध्यायी मध्ये पश्यामि अश्रुण्वम् इति अस्ति रूपम्
अश्रुण्वम् अस्ति
अश्रुणवम् अश्रुणवम् अश्रुण्णवम् अश्रुणव अश्रुण्म इति किञ्चित् विशेषरूपं विशेषरूपम् अस्ति तत्र
पञ्चमे स्वादिगाय अस्ति न शृणोति
भगिनी तत्र अष्टाध्यायी मध्ये तु प्रथमगणे एव अस्ति श्रु श्रवणे इति
शृणोति नो आदि कथति शृणोति इति
भुवादिगणे भुवादिगणे इति
भुवादिगणे
हा हा भुवादिगणे 01 1092 इति श्रु श्रवणे हा हा एतत् अहं केवलं दृष्ट्वा एव वक्तुं शक्नोमि
तत्र कुत्रचित् भवादिगणे अपि अस्ति तस्य आतिदेशसूत्रेण स्वादिगणः भवतु इति तत्रापि सूत्रं भवति अहं दृष्टवान् कुत्रचित्
शृणोति इति अहं जानामि
तत्र किमपि अस्ति परेषु इति विकरणप्रत्ययः भवति परे तत्र किमपि सूत्रम् अस्ति श्रुच श्रुवः श्रुच 3174 इत्यनेन अस्मद्धातोः कर्तरि सार्वधातुकप्रत्यये परे श्रु इति किमपि अस्तु अस्तु हा किन्तु अशृणोत् इति लङ्लकाररूपं अस्तु समीचीनं सत्यं भगिनि हा अस्तु इदानीं किं कुर्मः तत्र सर्वे किञ्चित् किञ्चित् स्वशब्दैः कथायाः विवरणं कुर्वन्तु तत्र सर्वं न प्रथमपरिच्छेदस्य तत्र कः शीतल भगिनी केवलं प्रथमपरिच्छेदस्य किञ्चित् विवरणं करोतु वाक्यद्वयम् अथवा वाक्यत्रयं
किं महोदय
प्रथमपरिच्छेदः महाभारतयुद्धम् आसीत् इति तस्य परिच्छेदस्य किञ्चित् स्वशब्दैः किञ्चित् वदतु तत्र किं किम् अस्ति तत्र कथा कथाम् अवगतवती खलु भगिनी अतः किम् अवगतवती तत् उपयुज्य किञ्चित् वदतु तत्र प्रथमपरिच्छेदे किम् अस्ति इति गीताञ्जलि भगिनी नमस्कारः प्रयत्नं करोतु भगिनि
बहु बहु क्षम्यतां महोदय
चिन्ता मास्तु भगिनि तत्र पेज् 132 मध्ये स्मः
महोदय अहं पश्यामि
अस्तु 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 शीतल भगिनी वदतु तदेव 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 सर्वं वयं सर्वे तदेव कुर्मः भगिनि प्रयत्नमेव कुर्मः न जानीमः किं भवति इति अस्तु वदतु भगिनि
सर्वे सम्यक्
चिन्ता मास्तु चिन्ता मास्तु भगिनि किं किं वक्तुं शक्नोति तद् वदतु वाक्यद्वयम् अथवा वाक्यत्रयं तावदेव
एककाले महाभारतं युद्धम् आसीत् भीष्मः कौरवाणां सेनापतिः आसीत् तत्काले अष्टदिवसानां भयङ्करयुद्धं कृतवान् आसीत्
कृतवान् सः कृतवान् भयङ्करयुद्धं कृतवान् अष्टदिवसान् यावत् यावत् सः भयङ्करं युद्धं कृतवान् तत्र दुर्योधनः सन्तुष्टः आसीत् वा दुर्योधनः
सन्तुष्टः
न आसीत् किमर्थं सः सन्तुष्टः न आसीत्
अर्जुनं दृष्ट्वा दुर्योधनः क्रोधं
न न दुर्योधनः भीष्म अर्जुन दुर्योधनः किमर्थं सन्तुष्टः नास्ति
भीष्म पाण्डवेषु एकमपि न मारितवान्
न मारितवान् इति सः सः सन्तुष्टः नास्ति सन्तुष्टः सः नास्ति यदि कोऽपि पाण्डवाः मृताः सन्ति चेत् सः सन्तुष्टः भविष्यति, किन्तु तादृशस्थितिः तादृशी स्थितिः नास्ति. हा समीचीनं भगिनि, अस्तु. हा समीचीनम्, अस्तु. नरेश् मोदी अग्रे, नरेश् मोदी अग्रे अग्रिमपरिच्छेदः. अतः भीष्मं दृष्ट्वा दुर्योधनः किं वदति?
भीष्मं दृष्ट्वा दुर्योधन अवदत् भवतः मम अपेक्षया भवतः पाण्डवाः प्रियाः सन्ति. तदर्थं भवान् पाण्डवेषु किमपि न मारयति.
हा कोऽपि कमपि कमपि पुल्लिङ्गे अस्ति, पुल्लिङ्गे अस्ति कमपि इति. हा कमपि न मारयति. हा तत्र भवान् यावत् भवान् तत्र दुर्योधनः किं वदति भीष्मं उद्दिश्य, भवान् यावत् पाण्डवान् इच्छन्ति तावत् मां न इच्छति खलु. हा अतः अतः तत्र भवान् अतः एव भवान् तेषु कमपि न मारितवान् इति.
क्षम्यतां महोदय, प्रायः सर्वे इति जानाति, किन्तु अहं न अवगच्छामि मदपेक्षया मद.
तत्र मम अपेक्षया इति तत्र समासं भूत्वा मदपेक्षया इति अस्ति भगिनि. मम यदि पदद्वयं रूपम् अस्ति चेत् मम अपेक्षया.
धन्यवादः.
समीचीनम्, अस्तु. अग्रे तत्र सरला भगिनी अग्रे तत्र एतत् श्रुत्वा इति ततः अपि अग्रिमपरिच्छेदः तत्र किं भवति?
दुर्योधनस्य कठोर शब्दाः श्रुत्वा भीष्म मनसि दुःखम् अनुभूतवान्.
भीष्मः दुःखम् अनुभूतवान्.
सः प्रतिज्ञां कृतवान् यत् अहं श्वः अर्जुनं मारिष्यामि या अहम् अर्जुनेन मरिष्यामि.
मारिष्यामि इति तत्र तु तत्र
रिजन्त भवति.
हा सत्यं, तत्र
अर्जुनेन
मारिष्यामि तदपि अर्जुनेन न मारिष्यामि इति
अर्जुनेन अत्र पराजित्यते.
अर्जुनेन मृतः भवामि.
मृतः भवामि तदपि. मृतः तत्र
अर्जुनेन मृतं भविष्यामि इति
तत्र मर् इति मर् इति तं
हन्य कर्मणि प्रयोगे भवति मृ धातु म्रियते भवति न मृदे म्रियेश् अर्जुनेन म्रियिष्यामि किं भवति?
हा तद् द्रष्टव्यं मृ इति
किमपि भू भविष्यामि
तत्र एकनिमिष. आम् तत्र हा तत्र मरिष्यामि एव अस्ति भगिनि. मरिष्यामि एव हा मारिष्यामि तत्र अर्जुनं मारिष्यामि मारयिष्यामि तत्र अर्जुनं मारयिष्यामि
मारयिष्यामि
तेन अहं मरिष्यामि
मरिष्यामि
सत्यं भगिनि.
सो एतत् प्रतिज्ञा सर्वे सैनिकाः द्वै पक्षे
ज्ञातवन्तः
तदा कृष्णम् अर्जुनस्य अपेक्षा चिन्तया चिन्तां कृत्वा तस्य शिबिरं गतवान्
अर्जुनस्य चिन्तां
शिबिरम् अर्जुनस्य प्रति चिन्तित्वा तस्य शिबिरं गतवान् सः कृष्ण चिन्तितवान् कि अर्जुनं
अर्जुनः अपि दुःखितः चिन्तावशः भवति इति
भवेत् इति सः चिन्तितवान् अतः सान्त्वनं कर्तुं तस्य शिबिरं गतवान्
समीचीनं भगिनि अस्तु अग्रे रघुपतिमहोदय तत्र किं भवति
तत्र कृष्णस्य आश्चर्यम् अभवत् कृष्णः आश्चर्यम् अनुभूतवान् किमर्थमिति चेत् अर्जुनः शान्तः अस्ति निद्रां कुर्वन् आसीत् अतः आश्चर्य यद्यपि अर्जुनः जानाति भीष्मस्य प्रतिज्ञा तथापि सः शान्तः अस्ति निद्रां कुर्वन् अस्ति अतः पृच्छति किमर्थं भवान् निद्रां चिन्तितः
कथं भवान् निद्रां कर्तुं
मद अपेक्षया भवान् शान्तः अस्ति किमर्थं
भवान् कथं निद्रां कर्तुं शक्नोति भीष्मस्य प्रतिज्ञां न श्रुतवान् वा इति
मृत्युभयात् भवान् उद्विग्नः मृत्युभयात् भवान् चिन्तितः नास्ति वा इति
सः पृच्छति समीचीनं महोदय अस्तु 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 अग्रे भानुचतुरी महोदय अग्रे किं भवति
अग्रे युद्धं भवति महोदय
न न अत्र केवलम् अत्र कथायाम् अग्रे किं भवति तत्र तर्हि तां श्रुत्वापि कथं भवान् चिन्तितः नास्ति इति तत्र केवलं भवतः शब्दैः स्वशब्दैः वाक्यद्वयं वाक्यत्रयं तत्र रघुपतिमहोदय विवरणं कृतवान्
अर्जुनः भीष्म प्रतिज्ञां श्रुत्वा अपि सुखेन
निद्रां कृतवान् किमर्थं
श्रीकृष्णः तद् दृष्ट्वा अपृच्छत् श्रुत्वा भवान् कथं सुखनिद्रां कर्तुं शक्यते भवता भवान् भवतः मृत्युभयं नास्ति वा
इति
श्रीकृष्णः अर्जुनम् अपृच्छत् महोदय
अर्जुनः किं वदति उत्तरं
अर्जुनः अपि बहु शान्तस्वरेण हसित्वा वदति महोदय सः वदति भगवान् भवान् तु अस्ति एव मम योगक्षेमायार्थं चिन्ता भवान् करोति किमर्थम् एकं करोति चेत् द्वितीयः किमर्थं करणीयं चिन्ता किमर्थं करणीयम् इति अहं सुखेन
अतः सुखेन निद्रां करोमि मम उत्तरदायित्वं नास्ति भवतः उत्तरदायित्वम् अस्ति अत्र अहं न तस्य नाम न स्मरामि अन्य कोऽपि यदि स्मरन्ति चेत् वदन्तु तत्र तत्र लोकन्यायः इति तादृशः अस्ति, प्रयोगः अस्ति खलु, तत्र मार्जारन्याय इति प्रायशः नाम अस्ति तत्र
बिडालमार्जारन्याय,
बिडालमार्जारन्यायः स्मरति वा महोदय तत्र?
आम् महोदय, बिडालः अस्ति चेत् तत् तस्य पुत्राः नेल्स् महोदय नखेन ते गृह्णाति, गृहीत्वा गच्छति चेत् गृहीत्वा सः एव
तत्र पुत्राः गृह्णन्ति वा अथवा माता गृह्णाति वा?
माता किमपि न भवति तस्य
कत्र, तत्र बिडालः अस्ति अपि अन्यन्यायः किमस्ति?
मार्जारः महोदय,
मार्जारः
मातः यदस्ति तस्याः पुत्राः इत्युक्ते महोदय बोथ् चिल्ड्रन् मेल् फीमेल् अस्ति,
तत्र किम् अन्यत् रूपम् अस्ति तत्र चिल्ड्रन् इति अपत्यान् समीचीनं महोदय, अपत्यान्
अपत्यानि एकोपि यानि सन्ति महोदय ते एव माता शरीरं गृहीत्वा नखेन गृहीत्वा ते गच्छन्ति, माता किमपि न करोति, किमपि न करोति इत्युक्ते
कुत्र
न स्पृशति,
बिडालः वा मार्जारः?
बिडालः स्वयं मार्जारः महोदय, मार्जारः
अस्तु,
मङ्की केट् अण्ड् मङ्की,
मार्जारः
बिडाल मार्जार एक एव न मार्जार बिडाल मार्जार इति
तत्र
अस्तु तत्र प्रायशः अत्र मार्जारः
बिडाल मर्कट
मर्कट वा
मर्कट मङ्की अस्ति,
मर्कट बिडाल मर्कट न्यायः अस्तु, तत्र बिडालः स्वयं अपत्यान् गृह्णाति किन्तु मर्कटः तत्र किं भवति
पुत्रपुत्री
वा ते एव मातरं गृह्णन्ति, ते मर्कटं गृह्णन्ति, अत्र किमस्ति, अत्र कीदृशन्यायम् अस्ति, मर्कटन्यायमस्ति वा अथवा बिडालन्यायम् अस्ति वा अत्र?
अत्र तु
बिडालन्यायम् अस्ति, भवान् भगवान् अस्ति, भवान् एव रक्षणं करोतु, अहं तु चिन्तां न करोमि, भवान् एव रक्षणं करोतु इति,
भक्तिभावः अस्ति चेत् बिडालन्यायः, ज्ञानभावम् अस्ति चेत् तर्हि मर्कटन्यायः,
समीचीनम् अस्तु, अन्यप्रश्नः अस्ति वा, कथां सर्वे अवगतवन्तः वा? अस्तु, तत्र क्त्वा इति प्रत्ययस्य रूपं तत्र ल्यबन्तरूपमपि आसीत्, तत्र किन्तु केवलम् एकवारं तद् आगतम् इति मन्ये, तत्र कुत्र आसीत् एतत् तत्र ल्यबन्तरूपं उत्थाप्य उत्थाप्य इति तावदेव आसीत्, अस्तु अस्तु, तर्हि तत्र अग्रे अग्रिमपुटे तत्र अभ्यासः एकम् अस्ति, प्रथम अभ्यासः तत्र तु किमपि नास्ति, द्वितीय अभ्यासः कर्तुं शक् तत् तं कर्तुं शक्नुमः इति मन्ये, अस्तु तत्र शीतल भगिनी तत्र आरम्भं करोति वा द्वितीय अभ्यासः?
आम् महोदय, यथोदाहरणं वाक्यद्वयं कृत्वा लिखत भीष्मः सेनापतिः भूत्वा युद्धं करोति, भीष्मः सेनापतिः भवति, युद्धं करोति. सः भीष्मं दृष्ट्वा अवदत्, सः भीष्मं पश्यति. सः अवदत्.
सः अवदत्. समीचीनं भगिनि. हा समीचीनम्. अस्तु अग्रे गीताञ्जलि भगिनि.
आं महोदय. भीष्मः एतत् श्रुत्वा दुःखितः भवति. भीष्मः एतत् शृणोति. सः दुःखितः भवति.
भवति. समीचीनं भगिनि. हा तावदेव तावदेव. समीचीनं भगिनि. अस्तु नरेश मोदि अग्रे.
श्वः युद्धं त्यक्त्वा अर्जुनं मारयिष्यामि. श्वः युद्धं करिष्यामि, अहम् अर्जुनं मारयिष्यामि.
हा समीचीनं महोदय. हा समीचीनं. हा अग्रे रघुपति महोदय.
श्रीकृष्णः भीष्मप्रतिज्ञां ज्ञात्वा उपायं चिन्तयति. श्रीकृष्णः भीष्मप्रतिज्ञां अजानत्. सोरि, भीष्मप्रतिज्ञां जानाति.
जानाति
जानाति. श्रीकृष्णः उपायं चिन्तयति.
चिन्तयति. समीचीनं महोदय. अस्तु सरला भगिनी अग्रे.
श्रीकृष्णशिबिरं गत्वा अर्जुनं दृष्टवान्. श्रीकृष्णशिबिरम् अगच्छत्, श्रीकृष्ण अर्जुनं दृष्टवान्.
हा समीचीनं भगिनि. हा अस्तु अग्रे भानुचेतनि महोदय.
तर्हि तां श्रुत्वापि कथं भवान् चिन्तितः नास्ति?
कुत्र अस्ति महोदय? इदानीम् अभ्यासं कुर्मः. तत्र अग्रिमपुटे षष्ठबिन्दु. हा द्वितीय अभ्यासः
षष्ठमबिन्दु. महोदय क्षम्यतां महोदय. अर्जुनः हसित्वा शान्तस्वरेण वदति. अर्जुनः हसति शान्तस्वरेण वदति.
हा समीचीनं महोदय. अस्तु हा अग्रे शीतल भगिनि पुनः.
आं महोदय. अहं किमर्थं चिन्तां कृत्वा दुःखितः भवामि? अहं किमर्थं किमर्थं चिन्ता करोति, दुःखितः
करोमि करोमि करोमि
करोमि करोमि क्षम्यतां, दुःखितः भवामि.
दुःखितः भवामि. समीचीनं भगिनि. अस्तु अस्तु तत्र त्वा इति उपयुज्य वाक्यद्वयं यदस्ति तत्र एकमेव वाक्यं वक्तुं शक्नुमः, अथवा एकमेव वाक्यमस्ति चेत् तत्र विभजनं कर्तुमपि शक्नुमः. समीचीनम्. अस्तु हा तत्र इदानीं तदेव रूपम् इदानीम् उपसर्ग अस्ति इति कृत्वा तत्र ल्यप् इति रूपम् आगच्छति. उत्थाप्य इति यत् आसीत् तस्यैव अग्रिमविषयः. तत्र किञ्चित् समयः अस्ति, तत्र सम्भाषणम् एकवारं पठितुं शक्नुमः इति मन्ये. तत् कृत्वा विरमामः. तत्र कः गीताञ्जलि भगिनी अपि सरला भगिनी पठन्ति वा? सरला भगिनी, धृतराष्ट्रः, गीताञ्जलि भगिनी सञ्जयः इति.
अवलोक्य विश्वरूपम् ल्यप्रत्ययान्तानि. एतत् सम्भाषणम् उच्चैः पठत जानीत धृतराष्ट्र. सञ्जय, भगवतः विश्वरूपम् अवलोक्य अर्जुन किम् अकरोत्?
सञ्जयः, राजन् अत्यद्भुतं तत् स्वरूपं दीक्ष्य पार्थ अवेपत अञ्जलिं निबध्य भीतभीतः सः कृष्णं प्रणम्य
सगद्गदम्
अवदत्.
सञ्जय भगवन्तं संस्तुत्य प्रार्थः किम् अवदत्?
महाराज, अदृष्टपूर्वं रूपम् अवेक्ष्य भीतः सः कृष्णं चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान्। हे राजन्, हरेः तत् अद्भुतं रूपं संस्मृत्य संस्मृत्य स्मृष्यामि। यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति तत्र विजयः धर्मः च भवतीति अहं मन्ये।
संजय, गीतोपदेशं निशम्य क्षम्यतां संजय गीतोपदेशं निशम्य नष्टमोह पार्थः अन्ये पाण्डवाः च किं कृतवन्तः?
राजन्, तदनन्तरम् अर्जुनः भूमौ स्थितं गाण्डीवं स्वीकृत्य धृतवान्। गाण्डीवधरं पार्थं सन्दृश्य सर्वे तत्र आगत्य स्थिताः। युधिष्ठिरः स्वस्य कवचं विसृज्य वरायुद्धं निक्षिप्य क्षिप्रं रथात् अवरुह्य पद्भ्यामेव पितामहम् अभिप्रेक्ष्य अगच्छत्। अन्येऽपि राजनः तम् अनुसृत्य गतवन्तः।
हा, इति समीचीनं, धन्यवादः। हा, तत्र किमस्ति, तत्र अधोभागे यत् दत्तमस्ति तत्र उपसर्गरहितक्रियापदम् अस्ति, अपि उपसर्गसहितक्रियापदम् अस्ति। तत्र उपसर्गरहित उपसर्ग नास्ति चेत् तत्र त्वारूपं भवति, उपसर्ग अस्ति चेत् सहितक्रियापदमस्ति चेत् ल्यबन्तरूपम् इति अस्ति। तत् एकवारं हा प्रायशः तद् अग्रे अग्रिमवर्गे कुर्मः तत्र। किन्तु गत्वा इति गच्छति तत्र रूपं भवति गत्वा, किन्तु आगच्छति इति तस्य रूपं भवति आगत्य इति। हा, तत्र त्वा इति स्थाने ल्यप् इति ध्या इति तादृशरूपं यकारः आगच्छति। आनीय सङ्गृह्य विस्मृत्य परित्यज्य अवगत्य इति तादृशरूपं भवति। अस्तु, अग्रिमवर्गे तद् परिशीलयामः। अस्तु,
वीक्ष्य महोदय, वीक्ष्य
कुत्र अस्ति? वीक्ष्य
पङ्क्ति महोदय,
तदपि
पश्यति,
तत्रापि तत्र वीक्ष्य अपि तत्रापि उपसर्ग अस्ति।
आं महोदय, वीक्ष्य
अपश्यति
दृष्ट्वा दृष्ट्वा इति अर्थे। हा, सत्यं, दृष्ट्वा इति अर्थे। अस्तु, एतदेव अग्रिमवर्गे विषयः भवति। अस्तु, तर्हि अन्यप्रश्नः अस्ति वा?
महोदय, धन्यवादः।
महोदय, अभिनन्दाः। भवान् पाठम् आरम्भं करोति इति श्रुतवान् अहम्।
अहं न जानामि महोदय, किमपि न जानामि, परन्तु
भवान् बहु किमपि जानाति, किन्तु तत्र सम्भाषणम् इति तत्र यदि पाठनं कुर्मः चेत् वयमपि सर्व तत्र अभ्यासः, अस्माकम् अभ्यासः अपि भवति खलु। तदेव तस्मात् कारणात् एव अहं पाठयामि अत्र। पाठनात् अहं बहु किमपि जानामि, ओ एतत् रूपम् अस्ति, सर्वे वदन्ति, ओ अस्तु अस्तु, नो चेत् मनसि एतत् न भवति खलु।
सम्यक्
एव भवति महोदय, चिन्ता मास्तु, करोतु। हा, बहु सन्तुष्टः अस्मि, हा, भवान् करोति इति श्रुत्वा।
धन्यवादः महोदय।
अस्तु तर्हि सर्वेभ्यो नमस्कारः, अग्रिमवर्गे मिलामः, धन्यवादः,
नमस्कारः,
हरि ओम्, धन्यवादः महोदय,
नमस्कारः, धन्यवादः महोदय।